सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतं। प्रवर्तमानः विषयः तु समासः। पाणिनेः सूत्राणाम् आधारेण वयं समासानां विषये अध्ययनं कुर्मः। अत्र अस्माकं पार्श्वे एकं करपत्रमस्ति, समाससम्बद्धं करपत्रमस्ति। तत्र तस्मिन् करपत्रे समासानां प्रसङ्गे पीठिकारूपेण कानिचन विषयान् वयम् अधीतवन्तः। अत्र पूर्वम् अधीतानां विषयाणां प्रसङ्गे किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम। इत्युक्ते एतावत्पर्यन्तं यद् अस्माभिः पठितं तं विषयम् आधारीकृत्य अद्य अहं कानिचन प्रश्नान् पृच्छामि, लघुप्रश्नाः एव। तत्र प्रश्नानाम् उत्तराणि अस्माकं करपत्रे एव दत्तानि। किमर्थमित्युक्ते किञ्चित् पुनस्मरणं कुर्मः चेत् इतोपि लाभाय भवति, स एव मम आशयः। अतः अत्र आरम्भे किञ्चित् अस्माकम् अवगमनं कीदृशमस्ति तदर्थमेव कांश्चन प्रश्नान् पृच्छामि। प्रयत्नं कुर्वन्तु अत्र उत्तरं दातुं प्रयत्नं कुर्वन्तु। अत्र अद्य अरुणा भगिनी, भवती वदति वा समासः नाम कः?
आं भगिनि,
समासः इत्युक्ते किम्?
अनेकस्य पदस्य एकपदी भवनं समासः इति उच्यते।
एकपदी वदतु।
एकपदी द्वे पदे संयुज्य समस्तपदं कुर्मः, तदेव एक भिन्न एक अर्थम् इति ददाति।
केवलं द्वयोः पदयोः मध्ये एव भवति वा
पर्यायः? परन्तु अनेकपदापि
भवति
कर्तुं शक्नोमि।
इत्युक्ते द्वयोः वा अथवा बहूनां पदानां वा मेलनं कृत्वा तत्र निर्वचनं दत्तमस्ति। एकपदी भवनम् इत्युक्ते एकपदी भवनम् इत्युक्ते तत्र अर्थः कः इत्युक्ते एकार्थबोधकत्वम् इत्युक्ते द्वयोः अथवा बहूनां पदानां मेलनं भूत्वा एकमेव पदं निष्पन्नं भवति, तत्र नूतनपदं विशिष्टार्थं बोधयति इति तत्र समासः। उत्तमम्। अनन्तरम् अत्र अरविन्दमहोदय, भवान् वदतु समासः इति पदस्य विग्रहवाक्यं किं भवति?
समासे यद्वाक्यम् अर्थबोधनार्थम् उच्यते तद् वाक्यं विग्रहवाक्यम् इति उच्यते।
अत्र समासः इति पदस्य विग्रहवाक्यं
समासपदस्य
अत्र समासन् वदति वा?
समास द्विविधा वाक्यार्थबोधनं द्विविधा अस्ति, लौकिकविग्रह अलौकिकविग्रह।
तत्र मम प्रश्नः तु समासः इति पदमस्ति तस्मिन् तत्र समासः इति पदमस्ति तस्य पदस्य विग्रहवाक्यम् अस्माकं करपत्रे अस्ति एव। इत्युक्ते अत्र चिन्ता मास्तु, समसनम् इति तत्र समसनम् इति तस्य विग्रहवाक्यं भवति। समासः समस्तपदस्य अर्थावबोधनार्थं किं कर्तव्यं वदतु? समस्तपदस्य अर्थावबोधनार्थं किं कर्तव्यं?
समासस्य अर्थबोधनार्थं पदस्य विग्रहं कर्तुम् अवश्यं
विग्रहवाक्यं वक्तव्यं भवति। अपि च विग्रहवाक्यं कतिविधं?
विग्रहवाक्यं द्विविधा अस्ति, लौकिक अलौकिक च।
लौकिकविग्रहवाक्यम् इत्युक्ते किम्?
आम् येन वाक्येन समस्तपदस्य अर्थ अवगम्यते तदा तत् वाक्यं लौकिकविग्रहः.
लौकिकविग्रहवाक्यं. किञ्चित् एकम् उदाहरणं, परिचित उदाहरणं स्वीकृत्य किञ्चित् विवृणोतु.
यथा सीतापति समासे सीताया पति इति लौकिकविग्रहम्.
उत्तमम्, उत्तमं महोदय, तावदेव. अत्र अन्ये के के सन्ति? ललिता भगिनी, भवती वक्तुं शक्नोति वा? अत्र महोदयः उक्तवान् विग्रहवाक्यं द्विविधम् इति उक्तवान्. अत्र अलौकिक लौकिकविग्रहवाक्यस्य विषये महोदयः उक्तवान्. भवती किञ्चित् वदतु, अलौकिकविग्रहवाक्यम् इत्युक्ते किम्?
शब्दानां लोके प्रयुक्तम् अर्हाणां पदानाम् अभावे अलौकिकविग्रहवाक्यम् इति कथयामः. ऐ एम् रीडिङ्ग् जस्ट् वाट् इस् देर् ओके.
तदेव
अलौ तदेव यत्र प्रकृतिप्रत्ययविभागः क्रियते तत्र अलौकिकः विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते.
अत्र एकं विशिष्टं वाक्यमस्ति, प्रकृतिप्रत्ययविभागः क्रियते. अत्र अलौकिकविग्रहवाक्ये प्रकृतिप्रत्ययविभागः क्रियते इति उक्तमस्ति, इत्युक्ते किम्?
हलो,
कोऽपि वक्तुमिच्छति वा अत्र? अन्ये के वक्तुम् इच्छन्ति अत्र? अत्र पूर्णेन्दु महोदय, भवान् वक्तुमिच्छति वा अत्र प्रकृतिप्रत्ययविभागः इत्युक्ते
किं? प्रकृतिप्रत्यययोजनेन प्रातिपदिकं भवति, तदनन्तरं सुबन्तरूपप्रत्ययः योज्य च सुबन्तं पदं भवति. तदेव अलौकिकवाक्ये सूचयति. उदाहरणं सीता पति द्वे पदे अस्तः, सीता योगः नस् सीतायाः इति अर्थं भवति. पति योगः सु पतिः प्रथमाविभक्ति शब्दं नामवाचकपदम् उद्भवति. ततः निर्माणसमये लौकिकविग्रह समस्तपदे सुबन्तप्रत्यय अहं न पश्यामः. ततः सीता पतिः एव इति रूपम् अस्ति.
इत्युक्ते आहत्य अत्र प्रकृतिप्रत्ययविभागः इत्युक्ते अत्र पदनिर्माणार्थम् अत्र प्रकृति स्वीकर्तव्यः स्वीकर्तव्या, अपि च प्रत्ययं योजयामः. तत्र सीतापतिः इति समस्तपदे सीता इति प्रातिपदिकमस्ति, पति इति प्रातिपदिकमस्ति. द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य तत्र समस्तपदनिर्माणं कुर्मः. तत्र सीतायोगः नस् पतियोगः सु इति वदामश्चेत् तदेव अलौकिकविग्रहवाक्यम् इति वदामः, इत्युक्ते शास्त्रीयविग्रहवाक्यम्. इत्युक्ते पदनिष्पादनार्थं या प्रक्रिया अस्ति तत्र व्याकरणलोके, तदेव अलौकिकविग्रहवाक्यं. यदि वयं लोके अलौकिकविग्रहवाक्यं वदामश्चेत् कोऽपि अवगन्तुं न शक्नुवन्ति. तदर्थमेव तत्र अस्माकम् अवगमनार्थं लौकिकविग्रहवाक्यं, किन्तु पदनिष्पादनार्थम् अलौकिकविग्रहवाक्यम् अपि भवति. तत्र अलौकिकविग्रहवाक्ये प्रकृतिप्रत्ययविभागः भवति इति विषयः अत्र. एतावत्पर्यन्तं लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यं तयोर्मध्ये भेदः कः इति वयं दृष्टवन्तः. अधुना अत्र पुनः एकवारं विग्रहवाक्यं द्विविधम् इति वक्तुं शक्यते. तत्र कथम् इत्युक्ते स्वपदविग्रहवाक्यम् अस्वपदविग्रहवाक्यम्. अत्र जगन्नाथ महोदय, भवान् वदति वा अत्र स्वपदविग्रहवाक्यम् इत्युक्ते किम्?
एकनिमिषं द्रष्टव्यं, सम्यक्तया न स्मरामि. समर्थपदविधि तस्य तस्मात् पूर्वमस्ति वा समर्
अधुना भवान् चिन्तयतु महोदय, अत्र पूर्णेन्दु महोदय भवान् वक्तुमिच्छति वा तत् स्वपदविग्रहवाक्यम् इत्युक्ते किम्?
आं भगिनि, स्वपदविग्रहवाक्यम् इत्युक्ते समासघटकपदैः यः यत् विग्रहवाक्यं क्रियते तत्तु स्वपदविग्रहवाक्यम्। उदाहरणस्वरूपं सीतायाः पतिः, सीतापतिः, सीतापतिः इति समस्तपदं, समस्तपदे यानि पदानि सन्ति इत्युक्ते सीता एवं पति, तैः पदैः यः विग्रहवाक्यं क्रियते सीतायाः पतिः तत्तु स्वपदविग्रहवाक्यम्। अस्वपदविग्रहवाक्यम् इत्युक्ते समासघटकपद पदानि विहाय यानि अन्यानि पदानि स्वीकृत्य यत् विग्रहवाक्यं क्रियते। उदाहरणस्वरूपं कृष्णस्य समीपम् उपकृष्णं, समस्तपद तु उपकृष्णं, तत्र उप इति पदम् अस्ति, परन्तु विग्रहवाक्ये उप इति पदं नास्ति। तत्र सामीप्यं निर्देशकर्तुं कृष्णस्य समीपम् इति पदं प्रयुज्यते, तत्तु अश्वपदविग्रहवाक्यम्।
उत्तमं, तावदेव। इत्युक्ते समासघटकैः पदैः विग्रहवाक्यं यदुच्यते तदेव स्वपदविग्रहवाक्यं। समासघटकैः पदैः विना इत्युक्ते तेषां सर्वेषां पदानां प्रयोगम् अकृत्वा भिन्नानि पदानि योजयित्वा अथवा केवलं केषाञ्चन पदानाम् उपयोगमेव कृत्वा यदि विग्रहवाक्यं वदामश्चेत् तत्र अस्वपदविग्रहवाक्यम् इति भवति। तत्र उत्तम उदाहरणम् अत्र महोदयः उक्तवान् उपकृष्णम् अथवा अव्ययीभावसमासप्रसङ्गे यानि यानि उदाहरणानि सन्ति तानि सर्वाणि अत्र अस्वपदविग्रहवाक्यस्य कृते उदाहरणानि भवन्ति। यथा निर्मक्षिकं, मक्षिकाणाम् अभावः, तत्र निर् इति उपसर्गः अस्ति, अपि च अव्ययपदमस्ति, पूर्वपदमस्ति, तत्र तस्य अर्थः तु अभावः इत्यस्मिन् अर्थे तस्य उपयोगं कुर्मः। इत्युक्ते समासघटकैः पदैः विना विग्रहवाक्यं वदामः। तत्रापि यत्र यत्र अस्वपदविग्रहवाक्यमस्ति तत्र समासः नित्यः। एतत् सर्वं वयम् अग्रे गत्वा परिशीलयिष्यामः। अत्र इतोपि किमस्ति इत्युक्ते अत्र पुष्पा भगिनी भवती वदति वा ययोः कयोः पदे
भगिनि समासघटक अर्थं किं भगिनि समासघटक
इत्युक्ते समस्तपदे यानि यानि पदानि तत्र स्थापितानि अथवा दत्तानि सीतापति सीतापतिः इत्यस्मिन् पदे सीतापति एतत् पदद्वयं समास समस्तपदे अस्ति
समासघटके अपि समस्तपदम् अस्ति वा भगिनि किं विग्रहवाक्यं
समस्तपदं समस्तपदमेव
कथं विग्रहवाक्यं समासस्य घटकः
तथा न वक्तव्यं किन्तु द्रष्टव्यं समास घटकैः पदैः अत्र समासघटकैः पदैः इति वदामश्चेत् तत्र कीदृशपदैः इति वक्तुमिच्छामश्चेत् विशेषणपूर्वपदं भवितुमर्हति, किन्तु अत्र अर्थं दृष्ट्वा वक्तुं शक्यते सर्वदा विग्रहवाक्यं कीदृशपदैः इति वयं तत्र पदानि कीदृशानि इति वक्तुमिच्छामश्चेत् तत्र समासघटकानि पदानि योजयित्वा
घटकारान्तनपुंसकलिङ्ग भगिनि
घटक अस्तु अकारान्तपदमेव अनन्तरम् अत्र इतोपि किम् अस्ति अत्र प्रश्नः अस्ति ययोः कयोः पदयोः मध्ये समासः भवति वा अथवा तत्र किम् अपेक्षितमस्ति तत्र कोऽपि वदतु अत्र
नामरूप
पदयोः सामर्थ्यमस्ति इति ययोः पदयोः सामर्थ्यम् अस्ति तयोः समासः भवति.
इत्युक्ते अत्र
सामर्थ्यम् इत्युक्ते सम्बन्धः अस्ति, तस्य अर्थबोधकथं भवेत्
इत्युक्ते द्वयोः पदयोः मध्ये परस्पर अन्वयः अस्ति अथवा परस्परसम्बन्धः अस्ति चेदेव तत्र समासं कर्तुं शक्यते. अत्र चत्वारः विषयाः अस्माभिः स्मर्तव्याः. तत् किम् इत्युक्ते सर्वदा विग्रहवाक्यम् अर्थम् आश्रित्य एव वक्तव्यम् इति एकः विषयः. अपि च द्वयोः पदयोः मध्ये परस्पर अन्वयः अस्ति वा इति द्रष्टव्यम्. अपि च द्वयोः पदयोः मेलनानन्तरं यत् नूतनं पदं निष्पन्नं भवति तस्य अर्थः भिन्नः अस्ति वा इति अपि द्रष्टव्यम्. इत्युक्ते तत्र एकार्थीभावसामर्थ्यम् अस्ति वा, पदयोः मेलनानन्तरम् एकार्थीभावसामर्थ्यम् अपेक्षितम्. अपि च चत्वारः विषयः अस्ति समाससम्बद्धसूत्राणि, विधायकसूत्राणि अष्टाध्याय्यां तत्सम्बद्धानि सूत्राणि अष्टाध्याय्यां सन्ति वा इति अपि द्रष्टव्यम्. एते चत्वारः विषयाः स्मर्तव्याः सर्वदा. अपि च अष्टाध्याय्यां समासप्रकरणमस्ति, समासप्रकरणे समाससम्बद्धसूत्राणि कस्मिन् अध्याये द्रष्टुं शक्यन्ते? द्वितीयाध्याये. इतोपि वदतु भगिनि.
द्वितीय अध्याये प्रथमपाद आरभ्य प्रथमपादे आरभ्य द्वितीयपदस्य अष्टसति सूत्रं प्रति मुख्यसमासाः तेषां सूत्राणि भवन्ति. तदनन्तरं चतुर्थपाद द्वितीय अध्यायस्य चतुर्थपादे वचनसम्बन्धं लिङ्गसम्बन्धम् अपि सूत्राणि आगच्छन्ति. तदनन्तरं आगच्छन्ति यत्र षष्ठे अध्याये अधिकारसूत्राणि सन्ति तत्र आगच्छति. अपि पञ्चमे अध्याये अपि तानि सूत्राणि सन्ति ते आगच्छन्ति तत्र.
उत्तमम् उत्तमं भगिनि, धन्यवादः. तावदेव अत्र. अनन्तरम् अत्र ललिता भगिनी भवती वक्तुमिच्छति वा? अत्र भवती कृतवती इति भाति. दर्शना भगिनी भवती वदतु. अत्र अष्टाध्याय्यां चत्वारि समाससम्बद्ध चत्वारि सूत्राणि सन्ति द्वितीयाध्यायस्य द्वितीयपादस्य प्रथमपादस्य प्रथमपादे चत्वारि सूत्राणि दत्तानि. तत्र तानि चत्वारि सूत्राणि अधिकारसूत्राणि. यद्यपि समर्थः पदविधिः परिभाषासूत्रमस्ति तथापि अधिकारसूत्रम् इव तस्य प्रसक्तिः सर्वत्र भवति इति कृत्वा तत्र चत्वारि सूत्राणि सन्ति. एकवारं स्मारयतु चत्वारि सूत्राणि. ललिता भगिनी करोति
वा? वदामि. चत्वारि सूत्राणि. एकवारं प्रश्नं
समर्थपदविधिः.
पुष्पा भगिनी वदतु. अत्र अधिकारसूत्राणि चत्वारि सूत्राणि सन्ति. ललिता भगिनी भवती शृणोतु, पुष्पा भगिनी वदतु.
समर्थः प्रदविधिः शुभामन्त्रिते पराङ्गवत् स्वरे अस्तु प्राक्कडारात् समासः सः सुपा ते सर्वे.
उत्तमम्. इत्युक्ते अत्र प्रथमं सूत्रं तु परिभाषासूत्रम्, अन्यानि सूत्राणि तत्र अधिकारसूत्राणि सन्ति. अत्र आरम्भे समर्थः पदविधिः इति सूत्रं दत्तमस्ति. अधुना अत्र भवती एव वदतु समर्थः पदविधिः सूत्रं किं वदति.
पदसम्बन्धि तत्तु समर्थाश्रितः भवेत् तदैव विधिः अस्ति पदसम्बन्धि. समर्थानां पदानां सम्बन्धार्थानां इति ज्ञातव्यं समर्थानां सप्तन्धार्थानां विधिः इति ज्ञातव्यम्.
अत्र सामान्यपदानि योजयित्वा वक्तुमिच्छामश्चेत् अत्र किं वक्तव्यं, समर्थः पदविधिः सूत्रं किं वदति अत्र?
अत्र समर्थः विधिः
अस्तु
दर्शन क्षम्यताम् अहं क्षम्यताम् अहम् अन्म्यूट् न कृत कर्तुं शक्तवती अतः न उक्तवती.
अस्तु दर्शन भगिनी भवती एव वदतु समर्थः पदविधिः सूत्रं किं वदति.
समर्थः पदविधिः वदति यत् द्वयोः शब्दयोः अरस्परसम्बन्धः अस्ति चेत् एव समासः करणीयमिति, एवमेव न करणीयमिति. विग्रहवाक्यस्य कृते वयं प्रश्नाः पृच्छन्ति तदा उत्तरं लभ्यते चेत् एव करणीयम्.
इत्युक्ते अत्र पदसं यत्र यत्र पदसम्बन्धी कार्यमस्ति तत्र समर्थपदविधिः इति सूत्रस्य प्रसक्तिः अस्ति एव. अत्र पदानां मध्ये परस्पर अन्वयः अस्ति चेदेव तत्र समासं कर्तुं शक्यते इति समर्थः पदविधिः सूत्रं वदति. अस्य सूत्रस्य प्रसक्तिः न केवलं समासप्रकरणे अन्येषु स्थलेषु अपि अष्टाध्याय्याम् अस्ति. यत्र यत्र पदसम्बन्धी कार्यमस्ति तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. एतत् तदर्थमेव अत्र सूत्रम् अधिकारसूत्रम् इव तस्य कार्यमस्ति इति उक्तम्. द्वितीयं सूत्रमस्ति सुभामन्त्रिते पराङ्गवत्. अस्मिन् विषये किं ज्ञातव्यं वदतु.
तत्तु वेदेषु एव उपयोगं भवति. तत् लौकिके न आगच्छति.
इत्युक्ते अत्र एतत् सूत्रं केवलं स्वरोच्चारणविषयं वदति तदर्थमेव. इदानीन्तनकाले तत्र समस्तपदस्य स्वरोच्चारणविषये वयम् अवधानम् अधिकतया न दद्मः. तदर्थमेव अस्य सूत्रस्य तस्मिन् विषये वयं बहु किमपि न ज्ञातवन्तः. केवलं सुभामन्त्रिते पराङ्गवत् स्वरे इति सूत्रात् सुप् इति पदम् अनुवृत्तरूपेण अन्येषु सूत्रेषु आयाति इति एव वयं दृष्टवन्तः. अत्र तृतीयम् अधिकारसूत्रमस्ति प्राक्कडारात् समासः. अत्र तृतीयसूत्रं विषयं बालसुब्रह्मण्यमहोदय भवान् वदतु अत्र प्राक्कडारात् समासः किं वदति.
इति समस्या समाससंज्ञा विद्यते अधिकारसूत्रं तदेव समाससंज्ञा विद्यते अस्मिन् सूत्रे.
इत्युक्ते एतत् सूत्रम् अधिकारसूत्रं सूत्रं कडाराः कर्मधारये इति सूत्रपर्यन्तम् अस्य सूत्रस्य अधिकारः अस्ति. यदि वयं पदविभजनं कृत्वा पश्यामश्चेत् प्राक् कडारात् समासः इत्युक्ते कडारात् प्राक् समाससंज्ञा विधीयते इति अर्थः. साधारणतया प्राक् इत्युक्ते पूर्वम् इति अर्थः. कडारात् इत्युक्ते कडाराः कर्मधारये इति सूत्रस्य सूत्रात् पूर्वं समाससंज्ञा विधीयते अनेन सूत्रेण इति अर्थः. तदर्थमेव कडारात् प्राक् समासः इति वक्तव्यं भवति. अनेन सूत्रेण समाससंज्ञा विधीयते. उत्तमं. सहसुपा किं वदति, भवान् एव वदतु.
सहसुपा इति सुबन्तस्य समर्थसुबन्तेन सह अन्य सुबन्तः समासं सम्भवति, एतयोः मध्ये सम्भवति इति अधिकारसूत्रम्
एतदपि अधिकारसूत्रमस्ति इत्युक्ते पूर्वपदं किमपि सुबन्तपदं भवेत् अपि च द्वितीय उत्तरपदं किमपि समर्थसुबन्तपदम् अस्ति चेत् तत्र सुबन्तपदस्य समर्थसुबन्तपदेन सह समासः अत्र सुपा इति वदामश्चेत् सुपा इति पदं तृतीयाविभक्त्यन्तं पदं सुपा इत्युक्ते सुबन्तपदेन सह इति अर्थः अत्र अस्य सूत्रस्य प्रसक्तिः अपि बहुत्र अस्ति तदर्थमेव अधिकारसूत्रम् अत्र केवलसमासः इति लिखितमस्ति केवलसमासस्य विषये किञ्चित् वदति वा अत्र वदतु
यः समासः विशिष्ट किमपि विशिष्टसंज्ञा विनिर्मुक्तः सः केवलसमासः इत्युक्ते तत्पुरुष बहुव्रीहि द्वन्द्व इत्यादि समासः विनिर्मुक्त तेन विना सामान्यसमासम् अस्ति चेत् तत् केवलसमासः इति उच्यते
उत्तमम् इत्युक्ते अत्र प्राक्कडारात् समासः इति सूत्रेण सामान्यसमाससंज्ञा विधीयते किन्तु अत्र अष्टाध्याय्यां तत्पुरुषाधिकारः द्वन्द्वसमासाधिकारसूत्राणि सूत्रम् अव्ययीभावसमासस्य कृते बहुव्रीहिसमासस्य कृते एतानि चत्वारि अधिकारसूत्राणि विशिष्टसमाससंज्ञासूत्राणि अत्र यत्र यत्र विशिष्टसमाससंज्ञा नास्ति तत्र केवलं सुबन्तपदम् अन्यत् सुबन्तपदेन सह समासं कर्तुं शक्नुमः तत्र केवलं विशिष्टसमाससंज्ञा नास्ति इति कृत्वा तत्र तस्य नाम तु केवलसमासः इति वदामः केवलसमासस्य कृते एकम् उदाहरणं वदतु अत्र अरुणभगिनी भवती वदतु
करपत्रे अस्ति भूतपूर्वः इति समासः तस्य विग्रहः पूर्वं भूतः अस्ति इति अयं केवलसमासः इति उदाहरणं तदेव अहं जानामि
इत्युक्ते अत्र अत्र समस्तपदं तु भूतपूर्वः भूतपूर्वप्रधानमन्त्री इति वदामः तत्र भूतपूर्वः इत्युक्ते प्रीवियस् इति वदामः तत्र विग्रहवाक्यं किं भवति पूर्वं भूतः इति विग्रहवाक्यं भवति किन्तु अत्र विशिष्टसमाससंज्ञाविधायकसूत्रं नास्ति इति कृत्वा अत्र केवलसमासः अस्ति इति वदामः इत्युक्ते अत्र केवलं सहसुपा इति सूत्रेण एव सामान्यसूत्रेण सहसुपा इति सूत्रेण अत्र समासः विधीयते तदेव तादृशानि उदाहरणानि काव्येषु बहवः सन्ति किन्तु तेषां समर्थनार्थम् अत्र सहसुपा इति सूत्रम् उपकरोति यद्यपि ते समस्तपदानि ते निर्मितवन्तः किन्तु तत्र विशिष्टसमाससंज्ञासूत्रं नास्ति इति कृत्वा सहसुपा इति सामान्यसूत्रेण तत्र समस्तपदनिर्माणं भवति तदर्थमेव तस्य नाम केवलसमासः यत्र यत्र विशिष्टसमाससंज्ञा नास्ति तत्र केवलसमासः इति वदामः केवलसमासनिर्माणं सहसुपा इति सूत्रेण भवति उत्तमम् अत्र विशिष्ट अधिकारसूत्राणि दत्तानि एकवारं अत्र कोऽपि स्मारयति वा अत्र अरविन्दमहोदय भवानेव वदतु अत्र अधिकारसूत्राणि कानि
अधिकारसूत्राणि
विशिष्ट अधिकारसूत्राणि
अव्ययीभावसमास अधिकारसूत्राणि तत्पुरुषसमासाधिकारसूत्राणि बहुव्रीहिसमासाधिकारसूत्राणि द्वन्द्वसमासाधिकारसूत्राणि इति चत्वारि विशिष्टाधिकारसूत्राणि सन्ति.
विशिष्टसमाससंज्ञासूत्राणि पूर्वं वयं दृष्टवन्तः. तत्र सामर्थ्यं, समर्थः पदविधिः इति तस्य प्रसङ्गे तत्र सामर्थ्यम् इति एकं वयं पदं दृष्टवन्तः. सामर्थ्यं द्विविधम् इति वयं दृष्टवन्तः. तत्र सरला भगिनी भवती वदति वा सामर्थ्यं द्विविधं तत्र एकवारं स्मारयति वा?
आं भगिनि, विवक्षा एकमस्ति सामर्थ्यं, व्यपेक्षा सामर्थ्यं, यत्र अन्वय कारकसम्बन्धि अन्वय भवति प्रयास यथा वयं वाक्यम् वाक्यं वदामः रामः गृहं गच्छति इति, तत्र विवक्षानुसारं स्वतन्त्रतया भिन्नपदानि संयुज्य भवति. तत्र भवति व्यपेक्षा सामर्थ्यं, यत्र तयोः परस्परं सम्बन्धः अस्ति किन्तु स्वतन्त्रतया. यदि केवलं रामः गच्छति वदामि तदपि साधु, रामः गृहं गच्छति तदपि साधु, किन्तु यदि वाक्यं रामः गृहं गच्छति अत्र तयोः परस्परं सम्बन्धम् आगच्छति विवक्षानुसारम् इति भवति व्यपेक्षासामर्थ्यम्. अन्य भवति एकार्थभावसामर्थ्यं, यदि भिन्नपदानि योजित्वा नूतनपदनं निर्माणं भवति यथा समस्तपदं, तदा तस्य अर्थम् अपि भिन्नम् आगच्छति. तत्र भवति एकार्थी भावसामर्थ्यम् इत्युक्ते अर्थे वृत्तिः आगच्छति, भिन्न अर्थमिति अर्थे वृत्तिः आगच्छति. यदा वयं द्रष्टुमः तत्र पञ्च पदानि, पञ्च विभिन्नपदानि, वृत्तिपदानि सन्ति, सिद्धान्तपदानि, समस्तपदानि, पदानि, अविशेषपदानि इति, तत्र वृत्तिः आगच्छति. यदि पदानां मेलनं भवति तद् भवति एकार्थीभावसामर्थ्यं तत्र.
उत्तमम्. इत्युक्ते अत्र एकार्थीभावसामर्थ्यं, व्यपेक्षासामर्थ्यम् इति वयं दृष्टवन्तः. व्यपेक्षासामर्थ्यं वाक्ये दृश्यते, वाक्ये पदयोः मध्ये, पदानां मध्ये व्यपेक्षासामर्थ्यं दृश्यते. किन्तु तत्र एकार्थीभावसामर्थ्यम् इति वृत्तिषु दृश्यते. तत्र वृत्तयः, पञ्चवृत्तयः सन्ति इति वयं दृष्टवन्तः. भगिनी अधुना उक्तवती कृद्वृत्तिः, तद्धितवृत्तिः, एकशेषवृत्तिः, समासवृत्तिः, सनाद्यन्ता धातुवृत्तिः. वृत्तिषु एकार्थीभावसामर्थ्यं दृश्यते. एकार्थीभावसामर्थ्यम् इत्युक्ते पदानां मेलनं भूत्वा तदनन्तरं यत्पदं, नूतनपदम् आयाति तस्य विभिन्न अर्थः अस्ति. तदेव अत्र एकार्थीभावसामर्थ्यम् इत्युक्ते. आहत्य वयं तदपि दृष्टवन्तः, पञ्चवृत्तयः सन्ति इत्यपि. तदनन्तरम् अत्र विकल्पाधिकारः इति एकं पदमस्ति. इत्युक्ते अत्र विकल्पम् इत्युक्ते अत्र कुत्र व्यस्तप्रयोगं कर्तुं शक्यते, कुत्र समस्त प्रयोगमेव कुर्मः. इत्युक्ते समासः कुत्र नित्यः भवति, कुत्र विकल्पेन समासं कर्तुं शक्यते इति अत्र विषयः. विकल्पाधिकारः इत्युक्ते अत्र विभाषा इति एकं सूत्रमस्ति. विभाषासूत्रमपि अधिकारसूत्रं. तस्य नाम महाविभाषा इति अपि उच्यते. किमर्थम् इत्युक्ते अस्य अधिकारसूत्रस्य अधिकारः बहु बृहत्. इत्युक्ते तत्र अधिकारसूत्रस्य अधिकारः कुत्र पर्यन्तमस्ति, अपपरिबहिरञ्चवः पञ्चम्या इति सूत्रात् आरभ्य कडाराः कर्मधारयपर्यन्तं विभाषा इति अधिकारसूत्रस्य प्रसक्तिः अस्ति इति कृत्वा तस्मिन् स्थले समासः विकल्पेन भवति, समासविधिः विकल्पेन भवति इति विषयः. अत्र यदि वयम् अव्ययीभावसमासप्रसङ्गे सूत्राणि पश्यामश्चेत् तत्र आरम्भे विभाषा इति सूत्रात् पूर्वं पञ्च वा अथवा षट् सूत्राणि सन्ति, तत्र अव्ययीभावसमासः नित्यरूपेण भवति इति विषयः. यथा वयं पूर्वं चर्चितवन्तः उपकृष्णम् इत्यस्मिन् पदे तत्र अस्वप न केवलम् अस्वपदविग्रहवाक्यम् अस्ति, तत्र समासः नित्यरूपेण भवति इति. इत्युक्ते कृष्णस्य समीपम् इत्येव वक्तव्यं, न तु कृष्णस्य उप व्यस्तप्रयोगं कर्तुं न शक्यते इति तत्र विषयः अस्ति. एतावत्पर्यन्तं वयं किञ्चित् दृष्टवन्तः. अद्य नित्यसमासः इत्यस्मात् आरभ्य पठेम. अत्र अधुना अत्र अजय महोदय, भवान् पठति वा? अजय
अधिकारसूत्रमस्ति
अत्र नित्यसमासः. नित्यसमासः इत्यस्मात्
प्रायेण अविग्रह अथवा अस्वपदविग्रह नित्यसमासः इति उच्यते. अविग्रह न विग्रह अविग्रह नजन्तपुरुषसमासः. यस्य समासस्य विग्रहः न अस्ति सः अविग्रहः इति उच्यते. नाम यस्मिन् समासे विग्रहवाक्येन समासस्य अर्थबोधः न भवति सः समासः नित्यः. तादृशसमासस्य विग्रहवाक्यं न अस्ति यतोहि विग्रहवाक्यस्य प्रयोजनं नास्ति, विग्रहवाक्येन अर्थः न बुध्यते.
भगिनी मन्दम अस्ति भगिनि,
किञ्चित् उच्चैः वदतु महोदय. इतोपि उच्चैः वदतु.
यथा कृष्णसर्पः इति श्रूयते वा?
किञ्चित् उच्चैः वदतु.
हेड्सेट् प्राब्लम् अस्ति.
अस्तु
पुनः वदतु भगिनि, न शृणोमि.
अत्र पठतु महोदय, अग्रिमपरिच्छेदमपि पठतु. अत्र किं दत्तमस्ति?
यथा कृष्णसर्पः इति विग्रहः नास्ति. श्रूयते वा?
श्रूयते.
अयं समासः नित्यसमासः यतोहि कृष्ण च असौ सर्पः च इति विग्रहवाक्येन समासस्य अर्थबोधः न जायते. किमर्थम् इति चेत् कृष्णसर्पः यः कोऽपि सर्पः नास्ति. कृष्णसर्पः विशिष्टसर्पः, जातिविशेषः इत्यर्थः. अस्य समासस्य विग्रहवाक्यं न भवति, व्यस्त्रप्रयोगः न भवति. कृष्णवर्णीयः यः सर्पः सः सर्पः भिन्नः कृष्णसर्पः भिन्नः. कृष्णसर्पः इति समासः अविग्रहसमासः इति कृत्वा नित्यसमासः.
तत्र स्थगयतु, किञ्चित् प्रतिपादयतु.
यत्र समासस्य अर्थः न बुध्यते तत्र अविग्रहः इति अस्ति. समासस्य नित्यसमासस्य नाम अविग्रहसमासः. अत्र उदाहरणं ददाति, कृष्णसर्पः कृष्णसर्पः इति मन्ये कोऽपि सर्पः नास्ति इति अवगन्तव्यम्.
उत्तमम्. अत्र प्रथमं पदं प्रायेण इति लिखितमस्ति, इत्युक्ते 90% इति अवगन्तव्यम्. साधारणतया समासेषु प्रायः प्रायः इति वदामः. इत्युक्ते तत्र यदि तत्पुरुषसमासप्रसङ्गे अपि किं वदामः, प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः इति वदामः. प्रायेण इत्युक्ते 90% तथा भवति, किन्तु कुत्रचित् अपवादाः सन्ति इति अवगन्तव्यम्. अविग्रहः अथवा अस्वपदविग्रहः, अविग्रहः इत्युक्ते विग्रहवाक्यमेव नास्ति अविग्रहः, अथवा अस्वपदविग्रहः इत्युक्ते स्वस्य पदैः विग्रहवाक्यं लेखितुं न शक्यते, तादृश्यां स्थित्यां नित्यसमासः भवति. अत्र अविग्रहः इत्यस्मिन् पदे कीदृशसमासः अस्ति? नञ् तत्पुरुषसमासः. तत्र विग्रहवाक्यं किं भवति? अत्र एव दत्तमस्ति, यस्य समासस्य विग्रहः नास्ति
सः अविग्रहः इति उच्यते.
अविग्रहः, अविग्रहः इति वदामश्चेत् तत्र यस्मिन् समासे विग्रहवाक्यं
प्रायेण इति भवान् भवती प्रतिपादितं, तत् आङ्ग्लभाषायां वक्तुं शक्नोति वा?
मोस्ट् प्रोबब्लि 90%.
मोस्ट् प्रोबब्लि
90%.
धन्यवादः.
अत्र
90%. ओके,
अत्र इतोपि किं लिखितमस्ति, अविग्रहः इत्युक्ते यस्मिन् समासे विग्रहवाक्येन समासस्य अर्थबोधः न जायते तत्र नित्यसमासः भवति. यद्यपि तत्र विग्रहवाक्यं वदामश्चेदपि विग्रहवाक्यस्य प्रयोजनं नास्ति, विग्रहवाक्यस्य प्रयोजनं नास्ति चेत् विग्रहवाक्येन अर्थः न बुध्यते. बहु स्पष्टतया अत्र लिखितमस्ति. तदर्थं यत्र विग्रहवाक्यं नास्ति अथवा यद्यपि विग्रहवाक्यम् अस्ति चेदपि तस्य अर्थबोधः न जायते तत्र नित्यसमासः भवति. यत्र यत्र अस्वपदविग्रहवाक्यम् अस्ति चेदपि तत्रापि नित्यसमासः भवति इति विषयः. अत्र उदाहरणत्वेन कृष्णसर्पः इति पदं समस्तपदं दत्तमस्ति. इतोपि किञ्चित् विवृणोतु महोदय, कृष्णसर्पः इत्यस्मिन् विषये. अत्र यदि अहं कृष्णः च असौ सर्पः च इति विग्रहवाक्यं वदामश्चेत् तत्र विशेषणपूर्वपदकर्मधारयसमासं समासः भवति. किन्तु कृष्णसर्पः इत्युक्ते केवलं कृष्णवर्णसर्पः नास्ति इति अर्थः. अत्र कृष्णसर्पः इत्युक्ते तत्र जातिविशेषः, सः सर्पः विशिष्टसर्पः, तस्य नाम एव कृष्णसर्पः. इत्युक्ते कृष्णवर्णीयसर्पः इति अर्थः नास्ति. इत्युक्ते यदि वयं कृष्णवर्णीयः सर्पः, कृष्णः च असौ सर्पः च इति वदामश्चेत् तत्र अर्थबोधः न भवति, अर्थः न बुध्यते, इत्यनेन तत्र विग्रहवाक्यस्य प्रयोजनमेव नास्ति इति कृत्वा तत्र अविग्रहः इति वक्तुं शक्यते. तत्र नित्यसमासः भवति. इतोपि किमस्ति अत्र? तावदेव.
प्रश्नः अस्ति,
वदतु महोदय.
कृष्णः च असौ, तत्र असौ इति पदस्य अर्थः किम्?
एषः,
एषः,
एषः. तत्र भिन्नभिन्न सर्वनामपदानि सन्ति, असौ अमु, तत्र इदं पदमपि, तत्र मकारान्तपदम् इदं पदमपि योजयामः. इदं शब्दस्य पुंलिङ्गरूपम् अयं, तद् शब्दस्य पुंलिङ्गरूपम् एषः, तथा एव असौ कृष्णः च एषः सर्पः च इति अत्र विग्रहवाक्यं वदामि चेत् तत्र अर्थबोधः न भवति इति कृत्वा तत्र विग्रहवाक्यस्य प्रयोजनमेव नास्ति. अपि च यत्र यत्र समासः नित्यरूपेण भवति तत्र विग्रहवाक्यं न भवति, अपि च व्यस्तरूपेण प्रयोगं कर्तुं न शक्यते. व्यस्तरूपेण प्रयोगम् इत्युक्ते प्रयोगः इत्युक्ते सीतापतिः गच्छति इति अपि साधु, सीतायाः पतिः गच्छति इति व्यस्तप्रयोगं कृत्वा वदामश्चेदपि साधु एव. इत्युक्ते साधारणतया समासः विकल्पेन भवति. तदर्थमेव पूर्वं पश्यन्तु, तत्र विभाषा इति सूत्रमस्ति. विभाषासूत्रेण साधारणतया समासः विकल्पेन भवति, किन्तु केषुचित् स्थलेषु नित्यरूपेण भवति. तत्र अस्वपदविग्रहः वा अथवा अविग्रहः वा भवति इति विषयः तत्र. तावदेव अत्र. अग्रिमे अत्र अरविन्द महोदय, भवान् पठतु अत्र द्वितीयपरिच्छेदम्.
अस्वपदविग्रहः न विद्यते. स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः. यस्य समासस्य अस्वपदविग्रहवाक्यम् अस्ति सः समासः नित्यसमासः. नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यै पदै यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते. समासघटकपदरहितं वाक्यम् अस्वपदविग्रहम् इति उच्यते. यदा उपकृष्णम् इति अव्ययी समास भावसमासः अस्ति, कृष्णस्य समीपम् इति अस्वपदविग्रहवाक्यम् अस्ति. अत्र समीपम् इति पदं समासघटकं पदं नास्ति. एतादृशविग्रह अस्वपदविग्रहः इति उच्यते. उपकृष्णम् इति समासस्य अस्वपदविग्रहः अस्ति इति इति कृत्वा अयं समासः नित्यसमासः.
वदतु
नित्यसमासस्य उदाहरणं दीयते अत्र. यत्र समासघटकपदान् त्यक्त्वा अर्थं बोधयति तत् समास अस्वपदविग्रहः. स्वपदं नास्ति, स्वपदं विहाय अन्यपदस्य योजनेन या यूसिङ्ग् जप् अर्थं भवति तद् नित्यसमासः अस्वपदविग्रहः नित्यसमासः भवति. उदाहरणं दत्तम् उपकृष्णम्. उपकृष्णम् इति अव्ययीभावसमासः अस्ति. तत्र उपः इति अव्ययः, उपः कृष्णः इति द्वे पदे समासनेन उपकृष्ण इति समस्तपदम् अस्ति. तत्र उपकृष्ण
महोदय, तत्र उपः इति नास्ति, केवलम् उप उप एव अस्ति. उप इति एकः उपसर्गः अस्ति अथवा अव्ययपदम्. उपसर्ग अपि पदं भवति, अव्ययपदम् अस्ति उप, तत्र विसर्गः नास्ति. वदतु
उप कृष्णम् इति समस्तपदस्य अर्थम् अस्ति कृष्णस्य समीपम्. अत्र उपकृष्ण द्वपदे त्यक्त्वा समीपम् इति पदं दृश्यते. तस्मात् अस्वपदविग्रहम् इत्युच्यते.
इत्युक्ते समासघटकैः पदैः विना, इत्युक्ते तानि पदानि त्यक्त्वा विहाय अन्यानि पदानि योजयित्वा अत्र विग्रहवाक्यं वदामः. तदर्थमेव अत्र उपकृष्णम् इति समस्तपदस्य विग्रहवाक्यं कृष्णस्य समीपम् इति भवति. तत्र समस्तपदे समीपम् इति पदं नास्ति, उप इति पदस्य अर्थः एव समीपम्. तत्र तदर्थमेव अत्र भिन्नानि पदानि योजयित्वा अत्र विग्रहवाक्यं रचयामः. तदर्थमेव अस्य नाम अस्वपदविग्रहवाक्यम् इति वदामः. अत्र पूर्वस्मिन् परिच्छेदे पश्यतु अश्वपदविग्रहः इति समस्तपदमस्ति. तत्र विग्रहवाक्यं पश्यतु, न विद्येते स्वपदविग्रहः यस्य सः इति विग्रहवाक्यं भवति. अधुना अत्र सरलभगिनी किञ्चित् प्रयत्नं करोति वा, अस्य नाम वक्तुं शक्नोति वा? न विद्यते, वदतु.
अहं चिन्तयामि इति भवती
वयं बहुव्रीहिसमासः अपि च नै बहुव्रीहिसमासः न विद्यते, न विद्यते स्वपदविग्रहः यस्य सः. यदा वयं बहुव्रीहिसमासप्रसङ्गे विग्रहवाक्यं वक्तुमिच्छामश्चेत् एतादृशरीत्या वक्तव्यम्. अत्र नै बहुव्रीहिसमासः अस्ति, न विद्यते स्वपदविग्रहः यस्य सः, अस्वपदविग्रहः, तत्पदमपि समस्तपदमेव. अत्र एतावत्पर्यन्तं वयं नित्यसमासः कुत्र भवति वयं निश्चितरूपेण वक्तुं शक्नुमः. अव्ययीभावसमासप्रसङ्गे नित्यसमासः एव भवति, समासः विकल्पेन न भवति. तत्र अस्वपदविग्रहवाक्यं दृश्यते इति विषयः अस्ति. न केवलम् अव्ययीभावसमासप्रसङ्गे, अपि च उपपदसमासः नाम्ना एकः समासः अस्ति, गतिसमासः, कुसमासः, एतादृशेषु स्थलेषु तत्र नित्यसमासः भवति. इत्युक्ते समासः नित्यरूपेण भवति, व्यस्तरूपेण वक्तुं न शक्यते. तत्र गतिसमासे, कुसमासे, उपपदसमासे तादृशरीत्या भवति. प्रादिसमासः द्रष्टव्यम्. एतावता केषुचित् स्थलेषु समासः नित्यरूपेण भवति, साधारणतया विकल्पेन भवति इति अवगन्तव्यम् अनेन. अधुना अत्र एकं नूतनं पदं दत्तमस्ति, उपसर्जनसंज्ञा इति एकम् अत्र एकं संज्ञासूत्रमस्ति. तस्मिन् विषये एकवारं पश्येम. अत्र दर्शनभगिनी भवती पठति वा? अत्र
उपसर्जनसंज्ञा समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातम् एव. तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते? तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता, येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति. समासे उपसर्जनम् इति काचित् संज्ञा वर्तते. यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम्. अतः समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम्. समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते. अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते. प्रथमा निर्दिष्टं समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते चेति. सूत्रस्य विवरणम् अधः लिखितम् अस्ति. समासः द्वयोः पदयोः मेलनं मेलनेन एव भवति. तत्र समासस्य प्रक्रिया मध्ये किं पदं पूर्वं, किं पदम् उत्तरम् इति कथं ज्ञातव्य इति एतं सूत्रं सूत्रेण ज्ञातव्य इति.
एतत् सूत्रेण
वयं ज्ञातुं शक्नुमः तत्र भ्री तावदेव खलु.
अत्र उपसर्जनसंज्ञा इति लिखितमस्ति. उपसर्जनसंज्ञा इत्युक्ते एका संज्ञा, काचित् संज्ञा अस्ति इत्युक्ते समासे उपसर्जनम् इति एका संज्ञा अस्ति. यदि वयं साधारणतया वयं सन्धिवर्गे वयं परिशीलितवन्तः, तत्र संज्ञासूत्रं वयं पठितवन्तः. अवसानं तत्र अवसानम् इति एकं संज्ञा, एका संज्ञा अवसानम् इति एका संज्ञा अस्ति. तत्र एकं संज्ञासूत्रमस्ति. संज्ञासूत्रम् इत्युक्ते अनेन सूत्रेण नामकरणं दीयते. अत्र विरामोवसानं, विरामोवसानम् इति एकं सूत्रमस्ति. तत् सूत्रं संज्ञासूत्रम् इति वदामः. इत्युक्ते अनेन सूत्रेण काचित् संज्ञा दीयते. उपसर्जनसंज्ञा इति एका संज्ञा. अनेन संज्ञया, अनया संज्ञया किं भवति इति अत्र किमर्थम् अस्य प्रसक्तिः अस्ति, संज्ञायाः प्रसक्तिः किमर्थम् अत्र अस्ति इत्युक्ते, यस्मिन् कस्मिन्नपि समस्तपदे पदद्वयं वा पदत्रयं वा भवति अथवा पदचतुष्टयं वा भवति, किन्तु तेषु किं पदं पूर्वं भवेत्, किं पदम् उत्तरपदं भवितव्यम् इत्यस्य कृते तत्र कानिचन सूत्राणि सन्ति, अपि च पाणिनिना सूत्राणि लिखितानि. अत्र तदर्थमेव अत्र उपसर्जनसंज्ञा इति अत्र दत्तमस्ति. इत्युक्ते यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम् इति विषयः अत्र. इत्युक्ते आहत्य समस्तपदेषु किं पदं पूर्वं भवेत् इति अवगन्तुम् अस्माकं कृते व्यवस्था अपेक्षिता. इत्युक्ते कथं तस्य निर्णयः भवति, किं पदं पूर्वं भवेत्, किं पदम् उत्तरपदं भवेत् इत्यस्य कृते दिर्मस्पि सोल्यूशन् तत्र कारणमस्ति. तत्र तदर्थमेव अत्र उपसर्जनसंज्ञा इति लिखितमस्ति. समासे उपसर्जनस्य अभिज्ञानम् आवश्यकम्. अभिज्ञानम् इत्युक्ते किं भगिनि?
आदौ एव नालेज् भवनीयम् इति ज्ञातव्यम्.
परन्तु
अहं न जानामि, यतः अष्टाध्यायी न पठितम् अहं न पठितम्.
वयं सर्वे मिलित्वा पठामः. उत्तमम्,
उत्तमम्.
इत्युक्ते अत्र अभिज्ञानं,
अभिज्ञानं रेकग्नैज्,
रेकग्निशन्. उत्तमम्. इत्युक्ते समस्तपदे उपसर्जन अभिज्ञानं, रिकग्निशन् अत्यावश्यकं. किमर्थमित्युक्ते वयं न जानीमः किं पदं पूर्वं भवेत्, किं पदं परं पदं भवितव्यम्. इत्युक्ते यदि वयं सीतापतिः इति समस्तपदं स्वीकुर्मः चेत् तत्र पतिशब्दं पूर्वपदं भवेत् वा, नो चेत् सीतापदं पूर्वपदं भवेत् वा इति प्रश्नः उदेति एव. तत्र यदि तत्र तत्सम्बद्धं सूत्रमस्ति चेत् अस्माकं कार्यं किञ्चित् सुलभं भवति. तदर्थमेव अत्र उपसर्जनसंज्ञा नाम्ना काचित् संज्ञा दीयते. किन्तु कैः सूत्रैः संज्ञा विधीयते इति अत्र दत्तमस्ति. इत्युक्ते अत्र सूत्रद्वयम् अस्ति. प्रथमानिर्दिष्टं समास उपसर्जनम् इति एकं सूत्रम्, एकविभक्तिचापूर्वनिपाते इति द्वितीयं सूत्रम् अस्ति. अत्र प्रथमं सूत्रं बहु विशिष्टसूत्रम् अथवा मुख्यसूत्रम् इति वक्तुं शक्यते. इत्युक्ते अस्य प्रसक्तिः बहुत्र अस्ति. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं मुख्यसूत्रं, किन्तु एकविभक्तिचापूर्वनिपाते इति सूत्रस्य प्रसक्तिः विरलतया भवति, रेयर्ली. किन्तु तत्र सूत्रस्य विषये अग्रे दत्तमस्ति. विनय् महोदय, भवान् पठतु.
अहम् अस्मि, पठामि. प्रथमनिर्दिष्टं समास उपसर्जनं समीचीनं भगिनि
वदतु महोदय वदतु.
ओके प्रथमनिर्दिष्टं समास उपसर्जनं समासविधायकसूत्रे यत् पदं प्रथमविभक्तौ निर्दिष्टम् अस्ति तत् पदम् उपसर्जनसंज्ञक स्यात्. इदं संज्ञासूत्रमस्ति. प्रथमनिर्दिष्टं प्रथमान्तम् उपसर्जनं प्रथमान्तम् समासे सप्तयन्तं त्रिपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रं प्रथमनिर्दिष्टं समास उपसर्जनम्.
किञ्चित् वदतु महोदय.
यदि प्रथमनिर्दिष्टं समास उपसर्जनं पादिनः प्रथमतया उपदिष्ट वा निर्दिष्टः तर्हि प्रथमविभक्ति स्थाने प्रथमविभक्तिस्थाने उपसर्जनं भवति.
अत्र
एकान्य विचारः. यदि वयं समाससम्बन्धे वदामि उदाहरणार्थ विकल्पेन समास भवनं तर्हि कः पदं गौण अस्ति कः पदं प्राधान्यमस्ति. यदि सीतापतिः उदाहरण अस्ति तथा सीतापतिः स्पष्टतया प्रथमपथं सीतायाः प्रथमतया आगच्छति पतिः परम आगच्छति अतः यदा वयं उपसर्जनं सम्बन्धे वदामि तर्हि समासस्य परिभाषा अपि आगच्छति न वा.
अत्र प्रश्नः अस्ति वा महोदय.
हा मम प्रश्नः द्वितीयप्रश्नः
वदतु पुनः पुनः पृच्छतु.
मम प्रश्नः मम संशयः इदमस्ति यदि वयम् उपसर्जनं सम्बन्धे वदामि अतः कः पदं पूर्वम् आगच्छति कः पदं परम् आगच्छति परन्तु सुबन्तपरिभाषाः अनुसार यदि समासः एकार्थी भावेन भवितव्यं तर्हि स्पष्टतः राज्यपुरुषः उदाहरणार्थ राज्यः प्रथम आगच्छति पुरुषः तदनन्तरम् आगच्छति
उत्तरपदं भवति. किन्तु किन्तु प्रश्नः मया न अवगतः. यदि कोऽपि जानाति चेत् वदतु केऽपि जानन्ति चेत् वदन्तु तस्य उत्तरम् उत्तरं किम् किञ्चित्
वदतु.
तदनन्तरम् अग्रे आयाति षष्ठी विभक्ति अस्ति तत्र कथं पूर्वं पदम् आगच्छति
धन्यवादः
भगिनी.
अत्र प्रथमानिर्दिष्ट अत्र किञ्चित् वदामि. अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति कीदृशं सूत्रम् इत्युक्ते एतत् सूत्रं संज्ञासूत्रम्. अनेन सूत्रेण उपसर्जनसंज्ञा विधीयते. इत्युक्ते कुत्र उपसर्जनसंज्ञा विधीयते? समासविधायकसूत्रे. अत्र समास प्रत्येकं समासस्य निर्माणार्थं तत्र तत्सम्बद्धानि सूत्राणि सन्ति. अग्रे गत्वा तत्र उदाहरणानि दत्तानि. कथं पञ्चमी भयेन इति सूत्रं पञ्चमी तत्पुरुषसमासप्रसङ्गे तत् सूत्रं कार्यं करोति. इत्युक्ते समासविधायकसूत्रे यत् पदं प्रथमाविभक्त्यन्तं पदम् अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति इति एतत् सूत्रं वदति. इत्युक्ते अनेन सूत्रेण उपसर्जनसंज्ञा दीयते. अत्र सूत्रस्य विषये परिशीलयामश्चेत् सूत्रे कानिचन पदानि सन्ति. प्रथमानिर्दिष्टं प्रथमान्तं पदम्, उपसर्जनं प्रथमान्तं पदं, समासे इति सप्तम्यन्तं पदम्. अत्र पश्यन्तु समासे इति सप्तम्यन्तं रूपं लिखितमस्ति, किन्तु तत्र सूत्रे केवलं समास इति दत्तमस्ति. समासे इति पदं न दृश्यते. किमर्थं? कोऽपि वदतु.
सन्धि
इतोपि विवृणोतु भगिनि.
सूत्रं सन्ति
एङ्गः पदान्तादपि नास्ति. तत्र कोऽपि वदति वा? अत्र सन्धिकार्यमस्ति अस्मिन् सूत्रे. वदतु महोदय.
भगिनी अहं वदामि.
वदतु.
अस्तु. समासे उप यदि वयं योजयामः यान्तवान्तसन्धि भवति एचोवया अनेन समास युक्त इति भवति. अय आदेशः आगच्छति. अन्यसूत्रमस्ति लोपसाकलस्य अनेन विकल्पेन यकारस्य लोप भवति. अतः तत्र भवति समासयोग उप एव अस्ति. समास उप आगच्छति अनेन सूत्रेण. एतस्मिन् सूत्रे प्रथमानिर्दिष्टं समास उपसर्ग इति उपसर्जनम् इति अत्र लोपशाकलस्य मतेन सन्धि कृतम् अस्ति. तत्र यकारस्य लोप अस्ति.
उत्तमं भगिनी. तावदेव. इत्युक्ते अत्र किञ्चित् अहं संक्षेपेण किञ्चित् वदामि. अत्र यथा सरला भगिनी उक्तवती, अत्र यान्तवान्तादेशसन्धिः भवति. तत्र सूत्रमस्ति यचोयवायावः इति सूत्रमस्ति. तत्र यथासङ्ख्यमनुदेशः समानम् इति परिभाषासूत्रेण एकारस्य स्थाने ऐ आदेशः भवति. तत्र किं किद् एकवारं सन्धिकार्यं पश्यन्तु. समासे योगः उपसर्जनम्. तत्र समासे इत्यस्य पदस्य अन्ते एकारः अस्ति. एकारः तत्र उत्तरपदस्य आदिमवर्णः उकारः अस्ति. अत्र यचोयवायावः इति सूत्रेण एकारस्य स्थाने ऐ आदेशः भवति. तेन समास तदनन्तरं वर्णमेलनं तत्र वर्णमेलनं कुर्मः चेत् समासयुपसर्जनं यकारः आयाति. तत्र समासयुपसर्जनम् इति पदमायाति. किन्तु तत्र यथा भगिन्या उक्तं, तत्र एकं नूतनं सूत्रमपि कार्यं करोति. लोपः शाकल्यस्य इति सूत्रमस्ति. तत्र अनेन सूत्रेण किं भवति? विकल्पेन यकारस्य लोपः भवति. तत्र यत्र कुत्रापि सूत्रेषु तत्र नाम दृश्यते चेत्, इत्युक्ते शाकल्यस्य इति वैयाकरणस्य नाम इति भाति, यत्र कुत्रापि व्याकरणसूत्रेषु विभाषा अथवा विकल्पेन वा अन्यतरस्याम् अथवा शाकल्यस्य एतादृशानि पदानि दृश्यन्ते चेत् तत्र विकल्पेन कार्यं सन्धिकार्यं भवति इति अर्थः. किन्तु अत्र यकारस्य लोपः भूत्वा लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः भूत्वा केवलं समास उपसर्जनम् इति पदं भवति. इत्युक्ते आहत्य अत्र सन्धिकार्यद्वयमस्ति इति. इत्युक्ते अत्र एतत् सूत्रं किं वदति, प्रथमतया समासविधायकसूत्रं द्रष्टव्यं. समासविधायकसूत्रं दृष्ट्वा तस्मिन् सूत्रे कानि कानि पदानि सन्ति इति प्रथमतया परिशीलनीयं. तदनन्तरं तस्मिन् सूत्रे, विधायकसूत्रे, किं पदं प्रथमान्तं पदमस्ति इति अन्वेष्टव्यम्. अन्वेषणं कृत्वा तत्र प्रथमाविभक्त्यन्तं पदं किं समासविधायकसूत्रे इति दृष्ट्वा, यत् पदं प्रथमाविभक्त्यन्तं पदमस्ति तस्य उपसर्जनसंज्ञा भवति इति विषयः अत्र अनेन सूत्रेण तस्य तदेव अत्र लिखितमस्ति. समासविधायकसूत्रेषु यत् पदं प्रथमाविभक्तौ निर्दिष्टमस्ति तत् पदम् उपसर्जनसंज्ञकं भवति. उत्तमं, तदर्थमेव अत्र. किन्तु सूत्रस्य अवगमनार्थम् उदाहरणं स्वीकृत्य परिशीलनीयं, तदर्थमेव अत्र उदाहरणं दत्तमस्ति. पुष्पा भगिनी भवती पठतु अत्र. भगिनी अस्ति वा? पुष्पा
भगिनी, एकः प्रश्नः अस्ति. उपसर्जन इति शब्दस्य आङ्ग्लभाषायां किम् अर्थः?
आप्शन्
कः अर्थः अस्ति वा अथवा
कर्तुं न शक्नोमि भगिनि?
गीताञ्जलि भगिनी भवती पठतु.
पठामि भगिनि.
पठतु. अत्र भगिनी पृष्टवती अतः वदामि. अहमपि शब्दकोशं दृष्ट्वा एव वदन्ती अस्मि. अत्र सब्स्टिट्यूट् इति एकम् अत्र
किन्तु तत्तु अर्थ भिन्न
भिन्न अर्थः अस्ति. किन्तु उपसर्जनं तत्र ल्युडन्तपदमेव, किन्तु द्रष्टव्यम्.
धन्यवादः धन्यवादः.
वदतु भगिनि, गीताञ्जलि भगिनि पठतु.
यथा पञ्चमी भयेन भगिनि तत् आरम्भम् अस्तु. यथा पञ्चमी भयेन इति पञ्चमी तत्पुरुषसमासविधायकसूत्रमस्ति. एतत् सूत्रं वदति पञ्चम्यन्तं सुबन्तं समर्थेन भयशब्देन सह समस्यते तत्पुरुषश्च समासो भवति इति. अस्मिन् सूत्रे पञ्चमी इत्यनेन पञ्चम्यन्तं सुबन्तम् इति अर्थः अस्ति. पञ्चमी प्रथमान्तं, भयेन इति तृतीयान्तं पदम्. अस्मिन् सूत्रे किं पदं प्रथमाविभक्तौ अस्ति? पञ्चमी इति पदम् एव प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण. अत्र एकम् उदाहरणम् अस्ति. पञ्चमी भयेन, भयेन नरेण, रामेण इव तृतीयान्तम् अस्ति. अपि च पञ्चमी अत्र प्रथमान्तं पदम् अस्ति. पञ्च तत्र वयम् इति पञ्चमी इति पदं वयम् उपसर्जनं संज्ञा करणीयम् इति. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं वदति.
इत्युक्ते अत्र पञ्चमीभयेन इति एकं सूत्रं, कीदृशं सूत्रं? विधायकसूत्रं. कस्य विधायकसूत्रं? तत्पुरुष पञ्चमी तत्पुरुषसमासस्य विधायकसूत्रं. यदा वयं तत्पुरुषसमासस्य विषये पठिष्यामः तत्र पुनः एतत् सूत्रम् आयाति. तत्र पञ्चमीभयेन पञ्चमी तत्पुरुषसमासविधायकसूत्रमस्ति. तत्र इदं सूत्रं किं वदति? उत्तरपदं भयम् इति पदमस्ति. यदा उत्तरपदं भयम् इति पदमस्ति चेत् तत्र भयम् इति पदं पञ्चम्यन्तं सुबन्तपदेन समर्थेन भयशब्देन सह समस्यते इति लिखितमस्ति. इत्युक्ते अत्र पूर्वपदम् अत्र पञ्चमी इति दत्तमस्ति. पञ्चमी इति पदं प्रथमाविभक्त्यन्तं पदमस्ति. अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं किं वदति इत्युक्ते, यस्मिन् कस्मिन्नपि विधिसूत्रे यस्य पदस्य प्रथमाविभक्तिः अस्ति तस्य उपसर्जनसंज्ञा भवति इति सूत्रं वदति. तदर्थमेव अत्र अस्मिन् सूत्रे पञ्चमी इति पदस्य उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा भवति चेत् किं भवति, तस्य फलं किं? यत्र कुत्रापि उपसर्जनसंज्ञा भवति चेत् तस्य पूर्वप्रयोगः भवति इति अवगन्तव्यं. तद् अग्रे आयास्यति. अत्र एतावता अत्र वदतु
भगिनी, विधिसूत्रम् एव उपसर्जनम् इति संज्ञा भवति?
विधिसूत्रं परिशीलनीयम् अत्र अस्मिन् करपत्रे एव. यदि वयम् अन्ततो गत्वा परिशीलयामश्चेत् अस्य करपत्रस्य अन्तिमभागे कानिचन सूत्राणि अभ्यासार्थं भगिनी लिखितवती तत्र. यदि वयम् एकवारं तत्र पश्यामश्चेत् एतेषु सूत्रेषु उपसर्जनं किं, कस्य पदस्य पूर्वनिपातः भवति इति वक्तव्यम् इति भगिनी अत्र दत्तवती. सूत्राणि पश्यामश्चेत् द्वितीया इति एकं पदमस्ति, तृतीया अन्यत् पदं, चतुर्थी, पञ्चमी, एतानि पदानि सर्वाणि प्रथमाविभक्त्यन्तपदानि. द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्त आपन्नैः इति सूत्रे प्रथमान्तं पदं किं? द्वितीया इति पदं. तत्र तत्पदं द्वितीया इति पदं प्रथमाविभक्त्यन्तपदमस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भवति, अपि च तस्य पूर्वप्रयोगः भवति. इत्युक्ते तत्र द्वितीयाविभक्त्यन्तं पदं पूर्वपदं भवेत् इति. तत् सर्वम् अग्रे आयास्यति. इत्युक्ते एतावता समासविधायकसूत्राणि विधिसूत्राणि दृष्ट्वा तेषु सूत्रेषु प्रथमाविभक्त्यन्तं पदं किम् अस्ति इति एकवारं परिशीलनीयं. तदनन्तरं तस्य उपसर्जनसंज्ञा भवति इति अवगन्तव्यं. तदनन्तरं भिन्नसूत्रेण, भिन्नविधिसूत्रेण तस्य पूर्वप्रयोग उपसर्जनं पूर्वम् इति सूत्रेण तत्र उपसर्जनसंज्ञा भवति इति कृत्वा तस्य पूर्वप्रयोगः भवति इति वयम् अवगन्तुं शक्नुमः. अत्र भवती एव पठतु भगिनि अग्रे.
भगिनि
वदतु महोदय.
Somebody asked about upasarjanam. In Aarti, in this dictionary, is given a word which either by composition or derivation loses its original independent character, while it also determines the sense of another word opposite of pradhana. Example, in Paniniya, people of Panini, Panini becomes upasarjana. Or in Rajapurushaha, Rajan is upasarjana. Having lost its independent character is the meaning of upasarjana. Astu. Having lost its independent character.
Astu. Dhanyavadaha mahodaya. Astu. Anantram, atra, Balasubramanya mahodaya bhavan patativa, atra panchami bhayena iti. Etavad pariyantam, vayam kim drushtavantaha, panchami bhayena इति सूत्रे पञ्चमी इति पदं प्रथमान्तं पदमस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण. एतत् सूत्रं केवलं संज्ञासूत्रमेव, न तु विधिसूत्रं. विधिसूत्रम् अग्रे आयास्यति. पञ्चमी भयेन पठतु महोदय बालसुब्रह्मण्य महोदय.
पञ्चमी भयेन पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन ओके पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन तत्पुरुषश्च समासः भवति. पञ्चमी प्रथमन्तं भयेन तृतीयान्तं द्विपदम् इदं सूत्रम्. सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राकडारसमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सुभा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पञ्चमी सुप् भयेन सुपा पञ्चमी सुभयेन सुपा सह विभाषा तत्पुरुषः समासः इति अनुवृत्तिसहितसूत्रम्. पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन. सो पञ्चमी अन्तसुबन्तपदम् अन्यत् सुबन्तपदेन सह
भयशब्देन विशेषतया स्पष्टतया अत्र दत्तमस्ति. पञ्चम्यन्तं सुबन्तं पदं भयशब्देन उत्तरपदं सर्वदा भय इति तत्र एकं वार्तिकमपि अस्ति. भयभीतिभीतभीः इति वाच्यम् इति एकं वार्तिकमस्ति. तेन वार्तिकेन तत्र भयशब्दमपि भवितुमर्हति. भीतिः भीतः भीः एतादृशानि सर्वाणि इत्युक्ते तत्र चत्वारि पदानि सन्ति. तानि पदानि तेषु अन्यतमं पदम् इत्युक्ते भयशब्दः तत्र उत्तरपदमस्ति चेत् तत्र पञ्चमीभयेन इति सूत्रेण पञ्चमी तत्पुरुषसमासः भवति. अपि च समासः विकल्पेन भवति इत्युक्ते न तु नित्यरूपेण. इत्युक्ते अत्र अग्रे आयास्यति एव चोरात् भयम् इति अपि वक्तुं शक्यते. चोरभयम् इति अपि वक्तुं शक्यते. इत्युक्ते अत्र विकल्पेन समासः भवति तत्पुरुषसमासप्रसङ्गे. अत्र
चोरात् भयम् इति प्रथमपक्तिने पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन इति एवं चोरात् भयम् इति पदं भवति किल.
आं महोदय आम्. अत्र एकवारं वयम् अनुवृत्तिसहितसूत्रं पश्यामश्चेत् पश्यन्तु अत्र कति पदानि सन्ति. बहूनि पदानि अत्र दत्तानि. कथं वयं वाम दक्षिणतः वामपार्श्वे गच्छामश्चेत् अन्तिमं पदमस्ति समासः. समासः इति पदं प्राक्कडारात् समासः इत्यस्मात् आगतम्. इत्युक्ते प्राक्कडारात् समासः इत्यनेन समाससंज्ञा विधीयते. अपि च विशिष्टसमाससूत्रमस्ति इति कृत्वा तत्पुरुषः इति पदमायाति सूत्रे. विभाषा विकल्पेन समस्तपदनिर्माणं भवति इति कृत्वा अत्र विभाषा इति पदमागतम्. अपि च किमपि सुबन्तपदं समर्थेन सुबन्तपदेन सह समासं कर्तुं शक्यते इति अवगन्तुं सहसुपा इति अपि अत्र दत्तमस्ति. अपि च विशिष्टपञ्चमी तत्पुरुषसमासप्रसङ्ग विशिष्टसूत्रं पञ्चमीभयेनापि अत्र पदद्वयमपि दत्तमस्ति. इत्युक्ते आहत्य वयम् अनुवृत्तिसहितसूत्रं पूर्णतया पश्यामश्चेत् कस्य सूत्रस्य अधिकारः अस्ति, कस्मात् किं पदम् आगतम्, एतत् सर्वं वयम् अवगन्तुं शक्नुमः. उत्तमम्. एतदर्थमेव इतोपि अस्माकम् अवगमनार्थम् अत्र उदाहरणं स्थापितम्. पठतु महोदय. अत्र नो चेत् चोरात् भयं तस्मात् आरभ्य.
यथा चोरात् भयम् अनयोः पदयोः समासं कर्तुम् इच्छामः. सपोस् अनयोः पदयोः मध्ये भयम् इति एकं पदम् अस्ति. चोरात् भयं भयम् इति पदम् अस्ति. अतः पञ्चमी भयेन इति सूत्रस्य प्रकारः भवेत्. पञ्चमी भयेन इति सूत्रेण पञ्चमी तत्पुरुषसमासः विधीयते. यतोहि भय शब्दम् अस्ति. अधुना अनयोः पदयोः मध्ये कस्य पदस्य उपसृजनसंज्ञा भवति? पञ्चमी भयेन इति सूत्रे पञ्चमी इति पदस्य एव उपसृजनसंज्ञा आसीत्. अतः चोरात् भयम् इति उदाहरणे अपि अनयोः पदयोः मध्ये किं पदं पञ्चम्यन्तं पदम् अस्ति इति द्रष्टव्यम्. अस्माकम् उदाहरणे तु चोरात् इति पदम् एव पञ्चम्यन्तं पदम् अस्ति. अतः चोरात् इति पदस्य एव उपसर्जनसंज्ञा भवति. तेन सूत्रेण प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण चोरात् इति पदस्य एव उपसर्जनसंज्ञा, यतोहि पञ्चमी भयेन इति सूत्रे पञ्चमी इति पदमेव प्रथमाविभक्त्यां निर्दिष्टम् अस्ति. अतः उदाहरणे अपि यत् पदं पञ्चम्याम् अस्ति तस्य एव उपसर्जनसंज्ञा भवति. तस्मात् चोरात् इति पदेन एव उपसर्जनसंज्ञा भवति. किल महोदय?
आं महोदय, किञ्चित् वदति वा अत्र?
अत्र पूर्वं वयं दृष्टवन्तः पञ्चमी भयेन इति सूत्रप्रकारं पञ्चम्यन्तं भयेन इति पदमस्ति. तस्मात् पञ्चम्यन्तं पदम् एव उपसर्ज सम्यक् प्राप्नोति. एवमेव अत्र चोरात् भयम् इति वार्ता भयम् इति पदमस्ति. पञ्चम्यन्तपदं चोरात् अपि अस्ति. यथा पूर्वं पञ्चम्यन्तपदमेव उपसर्जनं प्राप्तव्यम्. तस्मात् चोरात् इति पदम् उपसर्जनसंज्ञा प्राप्नोति. एवमेव पूर्वं प्रयोक्तव्यं समासे पूर्वस्थानं प्राप्तव्यम्.
उत्तमम्. इत्युक्ते आहत्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण अत्र तस्य कृते उदाहरणं स्थापितम्. अत्र समस्तपदमस्ति चोरभयम्, अथवा अन्यानि पदानि अपि सन्ति व्याघ्रभयम् अथवा व्याघ्रभीः, तत्र वृकभयम्. वृकभयम् इति वदामश्चेत् वृकेभ्यः भयं, चोरात् भयम्. एतानि सर्वाणि अत्र पञ्चमी तत्पुरुषसमासः अस्ति. चोरभयम् इति समस्तपदं विग्रहवाक्यं. चोरात् भयम् अत्र भयशब्दः उत्तरपदमस्ति. उत्तरपदं भय भीतिः भीः भीतः, एतादृशानि पदानि एतेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् तत्र साधारणतया पञ्चमी तत्पुरुषसमासः भवति. केन सूत्रेण? पञ्चमी भयेन इति सूत्रेण पञ्चमी तत्पुरुषसमासः विधीयते. किन्तु अत्र अनयोः द्वयोः पदयोः किं पदं पूर्वपदं भवितव्यं, कस्य उपसर्जनसंज्ञा भवति इति द्रष्टव्यम्. इत्युक्ते अस्माकं विवक्षानुसारं कर्तुं न शक्यते. तत्र नियमाः सन्ति, नियमानुसारेण एव तत्र कार्यं भवति. अत्र कस्य पदस्य उपसर्जनसंज्ञा भवति इत्युक्ते अत्र सूत्रे यत् पदं प्रथमाविभक्त्यन्तं पदम् आसीत् तस्य उपसर्जनसंज्ञा भवति इति कृत्वा पञ्चमी इत्यस्य उपसर्जनसंज्ञा. पञ्चमी इत्युक्ते तत्र समस्तपदे यत् यस्य पदस्य पञ्चमी विभक्तिः अस्ति तस्य पूर्वप्रयोगः करणीयः इति विषयः. अत्र एतदर्थमेव उदाहरणं चोरभयम् इति पदं दत्तमस्ति. अपि च एतावत्पर्यन्तम् उपसर्जनसंज्ञा इति वयं संज्ञा का इति वयं दृष्टवन्तः. तस्य अवगमनेन को लाभः इत्युक्ते उपसर्जनसंज्ञा भवति चेत् किं भवति, तस्य फलं किम् इति अत्र दत्तमस्ति. एतावत्पर्यन्तं यः कोऽपि न पठितवान् अथवा पठितवती चेत् किञ्चित् अधुना वदन्तु. सूर्यकुमारी भगिनी, भवती पठति वा?
भगिनी एकः प्रश्नः. पञ्चमी भयेन भगिनी इति सूत्रं केवल भयविषये एव वयं उपयोगं करणीयम्।
इत्युक्ते उत्तरपदं भयम् अथवा भयं शब्द इव अन्यानि पदानि कानिचन पदानि सन्ति, तानि पदानि तेषु एकं पदम् उत्तरपदम् अस्ति चेदेव पञ्चमी तत्पुरुषसमासः भवति।
अस्तु अस्तु, भय एव, अस्तु, तदेव मम प्रश्नः।
तदर्थं न केवलं भय, तत्र एकं वार्तिकमस्ति, भय भीति भीत भी रीति वाच्यम् इति सूत्रमस्ति।
किन्तु ते सर्वे अपि भयविषय एव पदानि सन्ति।
आं भगिनि, आम्
धन्यवादः।
समानार्थकपदानि।
आं भगिनि,
अत्र अत्र सूर्यकुमारी भगिनी भवती पठति वा अग्रे?
आं भगिनि, शृणोति वा?
श्रूयते।
उपसर्जनसंज्ञायाः उपसर्जनसंज्ञायाः फलं किम्? उपसर्जनसंज्ञायाः फलं यत् यस्य उपसर्जनसंज्ञा भवति तस्य प्रयोगः समासे पूर्वं भवति। अर्थात् उपसर्जनसंज्ञकस्य पदस्य समासे पूर्वनिपातः पूर्वप्रयोगः भवति। अत्र सूत्रम् अस्ति उपसर्जनं पूर्वं। समासे उपसर्जनसंज्ञकस्य पदस्य पूर्वनिपातः भवति।
किञ्चित् वदतु।
उपसर्जनसंज्ञायाः फलं किं प्रश्नः अस्ति। उपसर्जनसंज्ञासूत्रं दृष्ट्वा फलम् अस्ति, तत्फलं पूर्व संज्ञापदं प्रथमविभक्तौ पदं पूर्वपदं निपातः उपसर्जनपूर्वं सूत्रम् इति चेत् समासे उपसर्जनसंज्ञकस्य पदस्य पूर्वनिपातः भवति। समासे उपसर्जनसंज्ञपदं तदर्थं प्रथमविभक्तौ पदं पूर्वपदं निर्माणं समासनिर्माणे पूर्वपदं कृत्वा समास पूरितं शक्यम्।
इत्युक्ते आहत्य अत्र एतावत्पर्यन्तम् उपसर्जनसंज्ञा का इति वयं दृष्टवन्तः। तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण संज्ञासूत्रेण केवलं संज्ञासूत्रम् इत्युक्ते अनेन सूत्रेण संज्ञा विधीयते। का संज्ञा? उपसर्जनसंज्ञा विधीयते। कथम् इत्युक्ते वयं दृष्टवन्तः उपसर्जनसंज्ञायाः फलं किम् इति प्रश्नः उदेति। फलम् इत्युक्ते
निर्माणे पदं स्थानं किम्
इत्युक्ते तस्य एकवारम् अत्र उपसर्जनसंज्ञा भवति, तत्र समासविधायकसूत्रं दृष्ट्वा सूत्रे प्रथमान्तं पदं परिशील्य तस्य उपसर्जनसंज्ञा भवति इति वयम् अवगच्छामः। तदनन्तरम् अत्र उपसर्जनसंज्ञायाः फलं किम् इति
चेत् अन्यपदम् अपि अन्यपदमपि पूरितं शक्यं। चोरात् भयं चोरभयं तदेव।
इत्युक्ते मम प्रश्नः तु उपसर्जनसंज्ञायाः फलं किम् इति पश्यामश्चेत् अत्र एव अत्र लिखितमस्ति उपसर्जनसंज्ञा यस्य भवति तस्य प्रयोगः समासे पूर्वं भवति इति अवगन्तव्यम्। इत्युक्ते यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्य पदस्य प्रयोगः पूर्वं भवेत् अधुना एकं विधिसूत्रम् आयाति, उपसर्जनं पूर्वम् इति एकं विधिसूत्रं, तेन विधिसूत्रेण किं भवति, कार्यं भवति. इत्युक्ते कार्यं किम् इत्युक्ते उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवेत् इति एतत् सूत्रं वदति. तदेव अत्र उपसर्जनं पूर्वम् इति विधिसूत्रम् अस्ति. अत्र इतोपि किञ्चित् अत्र वदामि, यदि वयं द्वितीयतत्पुरुषसमासविधायकसूत्रं पश्यामश्चेत् तस्मिन् सूत्रे प्रथमं पदं द्वितीया इति आयाति. तृतीयतत्पुरुषसमास विधायकसूत्रं पश्यामश्चेत् तृतीया तत् कृतार्थेन गुणवचनेन इति सूत्रं वदति. इत्युक्ते तस्मिन् सूत्रे तृतीया इति पदं प्रथमान्तं पदमस्ति. तथा एव सप्तमी तत्पुरुषसमासं पश्यामश्चेत् सप्तमी शौण्डैः इति सूत्रमस्ति. तस्मिन् सूत्रे सप्तमी इति पदं प्रथमान्तं पदं. तथा एव षष्ठी तत्पुरुषसमासप्रसङ्गे षष्ठी इति पदमस्ति, तत्पदमपि प्रथमान्तं पदम्. इत्युक्ते तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण तस्य उपसर्जनसंज्ञा भवति. तस्य पदस्य उपसर्जनसंज्ञा भवति चेत् किं भवति, प्रयोजनं किम् इत्युक्ते तस्य पूर्वप्रयोगं कर्तुं शक्नुमः. अधुना अस्माकं कार्यं सुलभं भवति इत्युक्ते किं पदं पूर्वं लेखनीयम्, उत्तरपदं किं भवितव्यम् इति प्रश्नस्य उत्तरं मिलति एव. तदर्थमेव अत्र उपसर्जनं पूर्वम् इति विधिसूत्रं दत्तमस्ति. अत्र जगन्नाथ महोदय भवान् पठतु. अस्ति वा महोदय?
अस्मि. कुत्र वयं पठनीयं भगिनि?
उपसर्जनं पूर्वम्.
उपसर्जनं पूर्वम् अस्तु. समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः. अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते. उपसर्जनप्रथमान्तं पूर्वं प्रथमान्तं द्विपदम् इदं सूत्रम् एतत् प्रथमे द्रक्ष्यामः. उपसर्जनं पूर्वं समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तः इत्युक्ते यथा चोरभयम् इति अस्ति, यत् तस्य चोरशब्दस्य एव उपसर्जनं भवति, तद् पदं प्रथमे आगच्छति, पूर्वे आगच्छति इति.
इत्युक्ते अत्र एकवारं तदेव वाक्यं पुनः परिशीलयामश्चेत् समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः. प्रयोक्तव्यः इति कीदृशं पदम्
इति करण करणीयं तथा न कर्तव्यं
कर्तव्यम् इव कर्तव्यम् इव इत्युक्ते तव्यत् प्रत्ययान्तरूपम् अस्ति.
आज्ञा भवति
इत्युक्ते अत्र तव्यत् प्रत्ययान्तरूपम् अस्ति. इत्युक्ते उपसर्जनसंज्ञकः प्रयोक्तव्यः. कुत्र? पूर्वं. प्रयोक्तव्यः इति तव्यत् प्रत्ययान्तरूपं. साधारणतया कर्तरिप्रयोगे विधिलिङ्गकार प्रयोगं कुर्मः, कर्मणि प्रयोगे तव्यत् अथवा अनियर् तेषां प्रयोगं कुर्मः. अत्र प्रयोक्तव्यः, प्रयोगः करणीयः. यस्य उपसर्जनसंज्ञा अस्ति तस्य पूर्वनिपातः भवति अनेन सूत्रेण, अनेन विधिसूत्रेण. इत्युक्ते पूर्वप्रयोगः अथवा पूर्वनिपातः, पदद्वयमपि समानार्थकमेव, भेदः नास्ति. पूर्वनिपातः इत्युक्ते पूर्वप्रयोगः. अस्मिन् सूत्रे पदानां विषये वदतु महोदय.
उपसर्जनं प्रथमान्तम् इत्युक्ते तस्य स्थाने अन्यत् किमपि आगच्छति, न यत् परं स्थाने आगच्छति, यत् आदेशः यद् भवति पूर्वं प्रथमान्तं तो द्विपदम् इति सूत्रं तर्हि द्वे पदे अपि प्रथमान्ते प्रथमान्तपदे तर्हि एकमेव सूचयति यद् उपसर्जनं यस्मिन् भवति तदेव पूर्वम् आगमनीयम् इति.
इत्युक्ते अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमी विभक्तौ भवति. अत्र प्राक्कडारात् समासः इति सूत्रात् अधिकारसूत्रात् समासः इति पदम् आगतं. यद्यपि समासः इति पदम् आगतम् अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् समासे इति सप्तम्यन्तं रूपं दत्तमस्ति विभक्तिपरिणामं कृत्वा अस्माकम् अवगमनार्थम् इति भाति. समासे उपसर्जनम् इत्युक्ते अग्रे पठतु महोदय इतोपि.
करारात् इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् सूत्रस्य अनुवृत्तिः अथवा एतस्य विवरणं करोति. अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमी विभक्तिः भवति. अत्र इत्युक्ते कुत्र प्राक्कडारात् समासः उपसर्जनं पुनः तत्र किमपि नास्ति. अनुवृत्त्यां अस्तु अनुवृत्तिसहितसूत्रं समासे उपसर्जनं पूर्वं तु समासः इति समासे
अनेन महोदय अत्र अनेन सूत्रेण किं भवति किञ्चित् वदतु. अनेन विधिसूत्रेण अनेन सूत्रेण कार्यं भवति. किं कार्यं भवति?
प्राक्कडारात् समासः
न अत्र उपसर्जनं पूर्वम् इति सूत्रेण किं कार्यं भवति?
यत्र यत्र कुत्रापि उपसर्जनं भवति सर्वदा तस्य कार्यं पूर्वमेव भवेत् इति.
इत्युक्ते यस्य पदस्य उपसर्जनसंज्ञा भवति
तद् समासे तस्य तत् अन्यपदानाम् अपेक्षया तद् पूर्वम् आगमनीयम् इति.
तदेव अत्र अग्रिमे परिच्छेदे दत्तमस्ति. अग्रिमपरिच्छेदं पठित्वा
अवगच्छसविधायकसूत्रे यत् पदं प्रथमाविभक्तौ अस्ति तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण. तत्पश्चात् उपसर्जनसंज्ञकस्य पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्व इति सूत्रेण. पुनः पठनीयं. समासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ अस्ति विधायकसूत्रम् उपसर्जनं पूर्वमेव
एकं समासविधायकसूत्रम् एकं सूत्रं वदतु अत्र एव दत्तमस्ति.
प्राक्कडारात् समासः
न प्राक्कडारात् समासः इति सूत्रेण केवलं समाससंज्ञा विधीयते किन्तु समासविधायकसूत्रम् एकं सूत्रं वदतु अत्र अस्मिन् करपत्रे दत्तमस्ति.
प्रथमानिर्दिष्टं समास उपसर्जनं
न अत्र अरुणभगिनी भवती वदतु. उत्तमं. पञ्चमी भयेन इति समासविधायकसूत्रं तथा एव षष्ठी इति अपि समासविधायकसूत्रम्. अपि च अहं पूर्वम् उक्तवती द्वितीया श्रितातीतपतितात्यस्तापन्नैः इति एकं सूत्रमस्ति. तानि सर्वाणि अत्र तत्पुरुषसमासविधायकसूत्राणि. अस्मिन् करपत्रे आरम्भे एव दत्तमस्ति पञ्चमी भयेन इति समासविधायकसूत्रम्. अत्र तस्मिन् सूत्रे प्रथमाविभक्त्यौ यत् पदमस्ति तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टम् उपसमास उपसर्जनं सूत्रेण. तदनन्तरम् एकवारम् एकदा तस्य उपसर्जनसंज्ञा भवति तदनन्तरम् उत्तरं कार्यं किम्? उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति उपसर्जनं पूर्वं सूत्रेण भवति. इत्युक्ते अत्र एकं सूत्रं संज्ञासूत्रम्, अन्यत् सूत्रं विधिसूत्रम्. तदेव अत्र तावदेव लिखितमस्ति. अरुणा भगिनी भवती पठतु अग्रे.
आं भगिनि, समासविधायकसूत्र तदेव.
चोरात् भयम्.
चोरात् क्षम्यता. चोरात् भयम् इति उदाहरणे यथा पूर्वोक्तं चोरात् इति पदस्य उपसर्जनसंज्ञा भवति. तत्पश्चात् समासे चोरात् इति उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति उपसर्जनं पूर्वम् इति सूत्रेण. अतः एव चोरभयम् इति समासनिर्मितं भवति. उपसर्जनसंज्ञाफलम् इति किम् इति तदेव उदाहरणम् अत्र अस्ति. चोरात् भयमिति चोरात् इति पदस्य उपसर्जनसंज्ञा भवति. केन सूत्रेण? पञ्चमी भयेन इति. भवनी
अत्र पञ्चमी भयेन इति विधायकसूत्रं, किन्तु उपसर्जनसंज्ञा केन सूत्रेण भवति? अत्र संज्ञासूत्रद्वयं दत्तमस्ति. प्रथमानिर्दिष्टं समास उपसर्जनं एकं सूत्रम्. अग्रिमम् अन्यत् सूत्रमपि अस्ति, किन्तु प्रथमानिर्दिष्टं समास उपसर्जनम् इति
उपसर्जनसंज्ञा भवति. तत्पश्चात् समासे चोरात् इति उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति. केन सूत्रेण? उपसर्जनं पूर्वम् इति सूत्रेण. ततः समासपदं निर्माणसमये समासपदं चोरभयम् इति समासः निर्मितं भवति.
इत्युक्ते चोरभयम् इति समस्तपदं कथं निर्मामः इति तत्र सोपानानि सन्ति. इत्युक्ते किं किं सूत्रं कुत्र आयाति तत्र पदनिर्माणावसरे, तत्र वयं सर्वे अग्रे गत्वा एतत् सर्वं परिशीलयिष्यामः. तत्र चोरभयम् इति पदं पदनिर्माणं कथं भवति, कैः कैः सूत्रैः भवति, तस्मिन् सन्दर्भे एतानि सर्वाणि सूत्राणि तत्र पुनः आयान्ति. अत्र उपसर्जनं पूर्वम् इत्यनेन पूर्वपदं चोर इति पदस्य पूर्वप्रयोगः भवति. अपि च उपसर्जनं भवितुं तत्र उपसर्जनसंज्ञा केन सूत्रेण भवति, एतत् सर्वं पुनः आयास्यति अत्र पञ्चमी भयेन इति पञ्चमी तत्पुरुषसमाससूत्रं विधायकसूत्रं दत्तमस्ति उदाहरणत्वेन. अन्यत् उदाहरणं षष्ठी इति दत्तमस्ति. अत्र एतत् पठित्वा वयं समापयामः. अग्रे अत्र पूर्णेन्दु महोदय भवान् पठतु अत्र
षष्ठी. षष्ठी तत्पुरुष विधायकसूत्रमस्ति. सूत्रं वदति षष्ठ्यन्तं सुवन्तं समर्थेन सुवन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति. अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति, नाम षष्ठ्यन्तस्य पदस्य पूर्वप्रयोगः भवति समासे इत्यर्थः. अत्र षष्ठी इति षष्ठी तत्पुरुषविधायकं सूत्रम् अस्ति. एकपदमिदं सूत्रम् एतत् सूत्रं वदति षष्ठ्यन्तं सुवन्तं समर्थेन सुवन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति. इत्युक्ते षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, सः च समासः षष्ठीतत्पुरुषसमासः भवति. अस्मिन् सूत्रे षष्ठी इति पदं प्रथमविभक्तौ अस्ति, अतः विग्रहवाक्ये यत् पदं षष्ठीविभक्तौ निर्दिष्टमस्ति तस्य उपसर्जनं संज्ञा भवति. अनन्तरं तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति. इत्युक्ते सीतायाः पतिः इति उदाहरणं स्वीकुर्मः चेत् अत्र सीतायाः षष्ठीविभक्तौ अस्ति, अतः सीता इति पदस्य उपसर्जनं भूत्वा सः तत्पदं समस्तपदस्य आदौ आगच्छति.
उत्तमं, तदेव. इत्युक्ते नाम षष्ट्यन्तपदस्य पूर्वप्रयोगः भवति. एतावता अत्र षष्ठी इति षष्ठीतत्पुरुषसमासविधायकसूत्रं तत्र, अपि च प्रथमान्तं पदमस्ति इति कृत्वा सूत्रे एकम, यथा महोदयः उक्तवान्, एकमेव पदमस्ति इत्युक्ते अन्येषां पदानाम् आवश्यकता नास्ति, सूत्रं स्वयं सम्पूर्णम् इति भाति. अत्र सम्पूर्णं नास्ति, क्षम्यताम्, अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् तत्र अन्यानि पदानि अन्येषु सूत्रेषु अन्यस्मात् सूत्रात् कानिचन पदानि तत्र अनुवृत्तिरूपेण अत्र दत्तानि सन्ति. अत्र एतत् सूत्रद्वयम् अस्माभिः स्मर्तव्यं, प्रथमानिर्दिष्टं समास उपसर्जनं एकं सूत्रं, तेन उपसर्जनसंज्ञा भवति, उपसर्जनं पूर्वम् इत्यनेन तत्र पूर्वप्रयोगः भवति इति अवगन्तव्यम्. अग्रिमं परिच्छेदमपि भवानेव पठतु महोदय.
षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति. षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् स्वामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. काकडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुप इत्यस्य अधिकारः, विभास इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं षष्ठी सुप् सुपा सः विभास तत्पुरुषः समासः. अस्तु, अत्र षष्ठी इति सूत्रस्य सूत्रं सम्पूर्णसूत्रं कथं करणीयम् इति वर्णितमस्ति. षष्ठी इति द्वितीयाध्यायस्य द्वितीयपादस्य अष्टमसूत्रम् अस्ति. एतत् सूत्रम् एकपदमिदं सूत्रम्, एतत् सूत्रं पूर्णसूत्रं कर्तुं सुवामन्त्रिते पराङ्गवत्स्वरे इति सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. काकडारात् समासः इति सूत्रात् समासः इति पदस्य अधिकारः वर्तते, सः सुप इत्यस्य अधिकारः अपि वर्तते, विभास इति सूत्रस्य अधिकारः अपि वर्तते, तत्पुरुषः इति सूत्रस्य अधिकारः अपि वर्तते. अधिकार अनुवृत्तिसहितसम्पूर्णसूत्रं भवति षष्ठी सुप् सुपा सः विभास तत्पुरुषः समासः.
उत्तमम्. इत्युक्ते अन्येभ्यः सूत्रेभ्यः कानिचन पदानि अनुवृत्तिरूपेण, इत्युक्ते सूत्रस्य अवगमनार्थं सम्पूर्णतया अवगन्तुम् इच्छामश्चेत् तत्र अन्यस्मात् सूत्रात् पदानि अत्र आगतानि, अत्र अनुवृत्तिसहितसूत्रं षष्ठी सुप् सुपा सः विभाषा तत्पुरुषः समासः इति दत्तमस्ति. अत्र अन्तिमपरिच्छेदमपि वयं परिशीलयामः. सरला भगिनी भवती पठतु अत्र.
आं भगिनि, सीतायाः पति इति विग्रहे सीता इति पदस्य षष्ठीविभक्तिः अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति प्रथमनिर्दिष्टं समास उपसर्जनं इति सूत्रेण. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पदस्य पूर्वनिपातः भवति, अतः एव समासे सीता इति पदस्य प्रयोगः पूर्वः भवति, समासः तु सीतापतिः इति भवति. एतदेव उपसर्जनसंज्ञायाः प्रयोजनं, यस्य उपसर्जनसंज्ञा भवति
समासविधायकसूत्रे अस्य एव पूर्वप्रयोगः भवति। यदि एतादृशनियमः नास्ति तर्हि पतिसीता इत्यपि समासः भवितुम् अर्हति, तथा मा भूत इति कृत्वा एव पाणिना उपसर्जनसंज्ञा कृता। इदानीं षष्ठी विधायकसूत्रस्य अपि उपसर्जनपूर्वं विधायकसूत्रस्य तेषां कथं पदनिर्माण समस्तपदनिर्माण कृते उपयोगः भवति। उदाहरणमस्ति सीतायाः पति, सीतायाः तस्य विभक्ति अस्ति पति इति अस्य प्रथमाविभक्ति अस्ति। सीतायाः पूर्वपदम् अत्र दत्तमस्ति, पति उत्तरपदं दत्तमस्ति, किन्तु समस्तपद किं पूर्वं भवति प्रथम निर्दिष्टसमासोपसर्जनम्, अनेन यस्य प्रथमा विभक्ति अस्ति तस्य भवति उपसर्जनसंज्ञा इति सूत्रेण। सीतायाः इति षष्टिविभक्त्याम् अन्तं पदमस्ति, षष्टिः इति सूत्रेण सीतायाः भवति उपसर्जनसंज्ञा, कारणक षष्ट्यन्तं पदं तस्य सूत्रे प्रथमाविभक्तिः अस्ति, अतः प्रथमानिर्दिष्टसमास उपसर्जनम् इति सूत्रेण षष्ट्यन्तं पदस्य उपसर्जनसंज्ञा भवति। यदि इदानीं वयम् उपसर्जनसंज्ञा प्राप्तं अतः उपसर्जनं पूर्वम् इति सूत्रेण समस्तपद यदि वयं निर्मातुमिच्छामः तत्र विभक्तिरूपकत्वा तस्य पूर्वपदं मान्यता भवति, अतः सीतापति इति पदं निष्पन्नं भवति। अत्र उदाहरणमस्ति यदि एतत् नियमः नास्ति वयं पतिसीता अपि कर्तुं शक्नुमः, किन्तु तत् अस्माकं पदं न वयं न इच्छामः तत् पदम् इति, तत् लोके नास्ति
नास्ति इत्युक्ते अत्र एव दत्तमस्ति। अत्र सूत्रद्वयमस्ति, प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इति इत्याभ्यां सूत्राभ्याम् अस्माकं समस्तपदं सीतापतिः इति पदं निष्पन्नं भवति, तदेव उपसर्जनसंज्ञायाः प्रयोजनम्। यस्य उपसर्जनसंज्ञा भवति समासविधायकसूत्रे तस्य पूर्वप्रयोगः भवति इति मुख्यविषयः। अत्र एतादृशनियमः नास्ति चेत् किं भवति, पतिशीता इति पदमपि भवितुम् अर्हति, किन्तु अस्माकम् इष्टं रूपं तत् नास्ति, तदर्थमेव अस्माकं सौलभ्यार्थम् अत्र पाणिनिना उत्तमानि सूत्राणि विरचितानि। अत्र एतत् सूत्रद्वयं नास्ति चेत् पदं पतिसीता भवितुम् अर्हति, किन्तु सूत्रद्वयम्, एकं संज्ञासूत्रम् अन्यत् विधिसूत्रमस्ति, ताभ्यां सूत्राभ्याम् अस्माकं कार्यं सुलभं भवति। अत्र सीतापतिः इति पदं निष्पन्नं अभवत्। अत्र यदि एतत् सूत्रद्वयं नास्ति चेत् क्लेशः भवति, तदर्थमेव तथा मा भूत् इति कृत्वा पाणिनिना उपसर्जनसंज्ञा कृता। अन्तिमपरिच्छेदम् अत्र गीताञ्जलि भगिनी भवती पठित्वा समापयतु।
प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इति द्वाभ्यां सूत्राभ्यां समासे किं पदं पूर्वं स्यात् इति ज्ञातुं शक्नुमः। समासे आदौ उपसर्जनस्य ज्ञानम् आवश्यकम् अस्ति। अत्र इति परिच्छेदः केवल आहत्य इति वदति, द्वे सूत्रे मुख्य स्तः प्रथमानिर्दिष्टं समास उपसर्जनम् अपि च उपसर्जनं पूर्वं द्वयोः सूत्रयोः द्वाभ्यां सूत्राभ्यां वयं
जानीमः किं पदं पूर्वम् आगच्छति, किं पदम् उपसर्जनं भवति, अपि च यदि यत् पदम् उपसर्जनं भवति तत् पदमेव पूर्वम् आगच्छति इति वयम्
अस्माभिः अवगम्यते, अवगन्तुं शक्नुमः. कर्मणि प्रयोगः वा भवतु, कर्तरि वा भवतु, अस्तु. अत्र वाक्यं पश्यतु, समादौ क्षम्यतां समासे आदौ उपसर्जनस्य ज्ञानम् अपेक्षितम्, आवश्यकम्. इत्युक्ते यदा वयं समस्तपदनिर्माणं कुर्मः तत्र उपसर्जनसंज्ञायाः ज्ञानम् अपेक्षितम्. इत्युक्ते तादृशं ज्ञानं नास्ति चेत् किं पदं पूर्वं भवति इति वयम् अवगन्तुं न शक्नुमः. अतः अत्र समासनिर्माणावसरे उपसर्जनसंज्ञायाः ज्ञानम् अपि च एतेषां सूत्राणाम् अवगमनम् अपेक्षितम्. अत्र प्रथमं सूत्रं, मुख्यसूत्रं प्रथमानिर्दिष्टं समास उपसर्जनं, किन्तु एकम् अन्यत् सूत्रमपि अस्ति, तदपि उपसर्जनसंज्ञायाः विषयमेव वदति. तत् सूत्रम् एकविभक्तिचापूर्णनिपाते इति द्वितीयं सूत्रं, किन्तु अनेन सूत्रेण विरलतया उपसर्जनसंज्ञा भवति. प्रमुखं सूत्रं तु प्रथमानिर्दिष्टं समासोपसर्जनम्. अत्र द्वितीयसूत्रस्य प्रसङ्गे अग्रिमे सप्ताहे वयं सर्वे मिलित्वा चर्चयिष्यामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः, नमस्कारः, नमस्कारः, अनेके धन्यवादः अपि.